Sarvebhyo Namaha. I'm extremely sorry there was a delay in today's webinar because of the Mahalaya Amavasya thing. We'll start in just 2 minutes, please. I'll be here in 2 minutes. Thank you. Can you all hear me? Okay. Adya Champu Ramayanasya Balakande Saptatrimshaha Pathaha October Masasya Ashtamaha Dinankaha Mangalacharane Narambham Kurmaha. Lakshmin tanotu nitaram itaranapekshamam hridvayam nigamashakhishikha pravalam hairambamam puruhadambara chaudyanignam vighnadribheda shatadhara dhurandharannaha. Vishwamitrasya charitram janakasya purohitaha shatanandaha tasya mukhat Ramalakshmanau Shrunutaha Tatradau Kaushikaha Vasishthasya Ashramam Akramya Surabhim Praptum Ichchanna Tatra Shaktasanna Tapasa Bahuni Divyastrani Prapya Tani Sarvani Divyastrani Vasishthena Brahmadandenaiva Nivaritani Iti Vigyaya Brahmatva Siddhyartham Tapa Acharati Tatramadhye Suryavamshasya Raja Trishankuhu Sashariram Swargam Praptum Ichchanna Guruna Vasishthena Nirakrataha Tatputraihi Mahodayadivihi Shaptaha Vishwamitram Sharanangachati Vishwamitraha Tasya Manorathapur Tirtham Yajnamekam Arabhate Tatra Sarveshu Brahmaneshu Samagateshu
वसिष्ठपुत्राः तु नागताः. तदा तान् स्वश्वभक्षकत्वेन शप्त्वा देवाः अपि यदा नागताः तदा विश्वामित्रः स्वस्य तपोबलेनैव त्रिशङ्कुं स्वर्गं प्रेषयति. किन्तु तत्र इन्द्रेण पुनः अधः पातितः विश्वामित्रस्य आज्ञाबलेन मध्ये गगनं प्रतिष्ठां लभते. क्रुद्धः विश्वामित्रः अहम् अन्यमिन्द्रं करिष्यामि इति सङ्कल्प्य नूतनानां नक्षत्राणां भुवनानां निर्माणम् आरभते. तत्र देवानां तदा भीताः सर्वे देवाः आगत्य तं सान्त्वयित्वा त्रिशङ्कोः तस्मिन्नेव स्थले यत्र सः गगने तिष्ठति तत्रैव स्वर्गसुखप्राप्तिः भवतु इति उक्त्वा गच्छन्ति. ततः एतत् सर्वं तु दक्षिणस्यां दिशि यदा विश्वामित्रः तपश्चरन् आसीत् तदा ततः तां दिशं त्यक्त्वा पश्चिमस्यां दिशि पुष्करक्षेत्रे विश्वामित्रः तपः चरितुम् आरभते. तत्र शुनश्चेपवृत्तान्तः उच्यते. पूर्वतनः गद्यभागः वस्तुतः अस्माभिः अर्धमेव पठितः. तदनु गीर्वाणगणप्रार्थनया परित्यक्तभुवनान्तरनिर्माणकर्माणम्. अनन्तरं पश्चिमस्यां दिशि पुष्करे पुष्कलं तपश्चरन्तं तावत्पर्यन्तं दृष्टवन्तः. इदानीम् अग्रे पश्यामः. अम्बरीष यज्ञपशुविनाशप्रायश्चित्तार्थं बह्वीभिर्गोभिः क्रीत्वा नरपशुतां नीयमानः. अम्बरीष यज्ञपशुविनाशप्रायश्चित्तार्थम्. अम्बरीषः इति अयोध्यायाः राजा. सः यज्ञमेकं कर्तुम् आरभते. पुनः यथा सर्वत्र क्रियते तथा इन्द्रेण यज्ञस्य पशुः अपहृतः. अम्बरीष यज्ञपशुविनाश. सः यज्ञपशुः नष्टः. तर्हि किं करणीयं, कथं यज्ञः साफल्यं नेतुं शक्यते इति अम्बरीषेण तत्र याजकाः पुरोहिताः पृष्टाः. तैः प्रायश्चित्तरूपेण नरपशुः दातुं शक्यते इति उक्तम्. सो अम्बरीष यज्ञपशुविनाशप्रायश्चित्तार्थं. यज्ञस्य पशुः मध्ये नष्टः. यज्ञः यदि सम्पूर्णः न भवति तर्हि ततः प्रत्यवायः अपि भवितुमर्हति इति धिया यज्ञं समापयितुं बह्वीभिः गोभिः क्रीत्वा. सो बह्वीभिः गोभिः, बहु मेनि, किन्तु कियत् इति भोजेन नोच्यते. किन्तु वाल्मीकिरामायणे गवां शतसहस्रेण इत्येव अस्ति. शतसहस्रं, 100,000 कौस्. सो गवां शतसहस्रेण क्रीत्वा परिक्रीय नरपशुतां नीयमानः. सो नरपशुः, नरः पशुः, मानुषपशुत्वं नीयमानः प्राप्यमाणः कः इति अग्रे उच्यते. अम्बरीषः यज्ञस्य पशौ विनष्टे सति सर्वत्र अन्विष्यति कोऽपि कञ्चन मानुषं ददाति वा इति. तत्र तावत् ऋचीकस्य मध्यमपुत्रः शुनश्चेपः. ऋचीकः इति तदानीं यदा सः अन्विष्यन् आसीत् तदा ऋचीकस्य ऋचीकनाम्नः ऋषेः. एषः ऋचीकः वस्तुतः अग्रे वाल्मीकिरामायणे एव उच्यते शुनश्चेपस्य मातुलः विश्वामित्रः. सो ऋचीकस्य पत्नी विश्वामित्रस्य अग्रजा सत्यवती इति. अतः शुनश्चेपः तस्य भगिन्याः एव पुत्रः. अतः मातुलं शरणं गच्छति इत्युच्यते. सो ऋचीकस्य ऋचीकनाम्नः ऋषेः मध्यमपुत्रः. तस्य त्रयः पुत्राः आसन्. तेषु त्रिषु पुत्रेषु द्वितीयः शुनश्येपः, तस्य नाम सः बालकः, बालकस्य नाम शुनश्येपः, शरणम् अयाचत, शरणं रक्षणं प्रार्थयामास। सो अत्र कश्चित् प्रश्नः, प्रायश्चित्तं नाम किम् इति। सो प्रायश्चित्तम् इति विशिष्य यत् कार्यं कर्तव्यं, तत्र यदि कार्यं न कृतम् अथवा कार्ये मध्ये विघ्नः उत्पन्नः, कार्यं न समाप्तं, तदा तद्दोषनिवारणार्थं, सो इफ् अन् आक्ट्, एस्पेशलि संथिङ्ग् लैक् अ साक्रिफैस् आर् सम् व्रत आर् सम् रिचुवल् इस् इण्टरप्टेड् इन् बिट्वीन् आर् इस् नाट् केरीड् औट् टु कम्प्लीशन्, ततः प्रत्यवायः, विघ्नः, दुष्परिणामः भवति, तन्निवारणार्थं प्रायश्चित्तम् इति उच्यते। तत्र सर्वेषां नित्यकर्मणां प्रायश्चित्तम् अस्ति। सो मेनी आफ् द प्रिस्क्रैब्ड् रिचुवल्स् लैक् सन्ध्यावन्दनं, यु आर् नाट् एबल् टु डू इट्, इट् हेस् टु बी डन् अट् द स्पेसिफिक् टैम् थ्रैस् अ डे, तस्य प्रायश्चित्तं भवति। औपासनम्, अग्निहोत्रम् इत्यादि बहूनि कार्याणि यानि विहितानि, तेषाम् अकरणेन उत्पन्नस्य दुष्परिणामस्य निवारणार्थं यत् कर्म क्रियते तत् प्रायश्चित्तम् इत्युच्यते। सो मेनी आफ् द रिचुवल्स् हाव् ऐ मीन् देर् आर् रिचुवल्स् प्रिस्क्रैब्ड्, देर् आर् आल्सो स्पेसिफिक् प्रायश्चित्तस् प्रिस्क्रैब्ड् फार् स्पेसिफिक् रिचुवल्स्। सो विशिष्य यज्ञेषु, अस्य यज्ञस्य मध्ये विघ्नः भवति चेत् किं प्रायश्चित्तम्, अस्मिन् किं प्रायश्चित्तम् इत्यादि विधीयते। सो इदानीं किं जातम्, सो अम्बरीष यज्ञपशुविनाशप्रायश्चित्तार्थं बह्वीभिः गोभिः क्रीत्वा नरपशुतां नीयमानः शुनश्येपः। सो शुनश्येपः मानुषपशुरूपेण नीयमानः, अम्बरीषेण नीयमानः आसीत्, सः विश्वामित्रं शरणम् अयाचत। सो तत्र वाल्मीकिरामायणे पश्यामः चेत् दीर्घमस्ति, all this is a heavily condensed version being given by Bhoja. So gavam shatasahasrena vikrinishe sutam yadi pashor arthe mahabhaga kritakrutyosmi bhargava iti ambarishaha richikam prarthayate. So ekam sutam mahyam dadasi chet pashoho nimittam aham kritakrutyah bhavami iti evamukto mahatejaha rishikasvabravidvachah नाहं ज्येष्ठं नरश्रेष्ठ विक्रीणीयां कथञ्चन। तत्र दिस् मोटिफ् द थ्री सन्स् वेर् द मिडल् चैल्ड् इस् लेफ्ट् रिपीट्स् इन् मेनी एपिक्स्, बहुषु बह्वीषु कथासु अयं प्रसङ्गः भिन्नरूपेण कथ्यते। सो रुचिकः किं कथयति, ज्येष्ठः पुत्रः, ज्येष्ठं पुत्रम् अहं कथमपि त्यक्तुं न शक्नोमि इति। ऋचीकस्य वचः श्रुत्वा तेषां मातामहात्मनाम् उवाच नरशार्दूलमम्बरीशं तपस्विनी, ममापि दयितं विद्धि कनिष्ठं शुनकं नृप, तस्मात् कनीयसं पुत्रं न दास्ये तव पार्थिव। सो पिता ज्येष्ठं पुत्रं न ददामि इति वदति, तदा माता अपि कनिष्ठम् अहं न ददामि इति वदति। उक्तवाक्ये मुनौ तस्मिन् मुनिपत्न्यां तथैव च शुनश्येप स्वयं राम मध्यमो वाक्यमब्रवीत्। पित्रोः वचनं श्रुत्वा मध्यमः एषः शुनश्येपः, सः स्वयं कथयति, पिता ज्येष्ठमविक्रेयं माता चाह कनीयसं, विक्रीतं मध्यमं मन्ये राजन् पुत्रं नयस्व माम्। सेस् पिता ज्येष्ठम् अविक्रेयम् आह। सो पिता उक्तवान् किमिति, ज्येष्ठः न विक्रीयते इति, माता च कनीयसं, मत्तः कनीयान्यः अस्ति, तमपि न ददामि इति माता उक्तवती, तर्हि मध्यमं विक्रीतं मन्ये, मध्यमः अहं विक्रीतः इति चिन्तयामि, राजन् नयस्व मां, त्वं मां नय इति स्वयं शुनश्येपः राजानम् अम्बरीशं कथयति। शुनश्येपं नरश्रेष्ठ गृहीत्वा तु महायशः, व्यश्राम्यत् पुष्करे राजा मध्याह्ने रघुनन्दन। यदा नयन्नासीत् तदा मध्ये पुष्करक्षेत्रे सः अम्बरीशः विश्रान्त्यर्थम् तिष्ठति तदा तस्य विश्रममानस्य शुनश्चेपो महायशाः पुष्करक्षेत्रमागम्य विश्वामित्रं ददर्शः. यदा सः राजा विश्रान्तिं स्वीकरोति तदा शुनश्चेपः तत्रैव अटन् विश्वामित्रं पश्यति. सो तप्यन्तं ऋषिभिः सार्धं मातुलं परमातुरः. मातुलः नाम मातुः भ्राता मातुलः. तं तप्यन्तं दृष्ट्वा विवर्णवदनो दीनः तृष्णया च श्रमेण च पपाताङ्के मुनेराशु वाक्यं चेदमुवाचः. सो मुनेः अङ्के पतित्वा सः प्रार्थयते त्रातुमर्हसि मां सौम्य धर्मेण मुनिपुङ्गव. सो धर्मस्य कारणेन मां रक्ष. किन्तु शुनश्चेपः केवलं मां रक्ष इति न कथयति. राजा च कृतकृत्य स्यात् अहं दीर्घायुरव्ययः. अहं केवलं सः स्वयं धावितुमपि शक्नोति कुत्रापि, किन्तु तदा किं भवति, अम्बरीशस्य कार्यं नष्टं भवति. सः यदर्थं शुनश्चेपस्य पित्रोः बह्वीः गाः दत्तवान् तत् कार्यं नश्यति. स च अधर्मः इति तदपि कर्तुं नेच्छति. प्राणापाये सत्यपि तस्य धर्मनिष्ठा तादृशी. राजा च कृतकार्य स्यात्, राज्ञः कार्यं सिद्ध्येत् अहं दीर्घायुरव्ययः, अहमपि जीवितुमिच्छामि. स्वर्गलोकम् उपाश्नीयां तपस्तप्त्वा ह्यनुत्तमम्. किमर्थम् अहं जीवितुमिच्छामि? अनुत्तमं तपः तप्त्वा, उत्तमरीत्या तपः आचर्य स्वर्गलोकं प्राप्तुमिच्छामि. अतः धर्माचरणार्थं मां रक्ष. तथैव राजा अपि यथा धर्मच्युतः मा भूत् तथा विधेहि इति शुनश्चेपः विश्वामित्रं पृच्छति इत्येतावत् इदानीं पश्यामः. अग्रे विश्वामित्रः किं करिष्यति इति इदानीं तस्य समग्रस्य गद्यभागस्य व्याकरणांशाः. सो इतः आरब्धः गद्यभागः. ततो गीर्वाणगणप्रार्थनया परित्यक्तभुवनान्तरनिर्माणकर्माणम्. सो तत्र पूर्णस्य तात्पर्यमेवं. विश्वामित्रः त्रिशङ्कोः कृते नूतनानां लोकानां सप्तर्षिमण्डलस्य देवानां च सृष्टिम् आरब्धवान्. ततः अमराणां प्रार्थनया एतत् कार्यं त्यक्त्वा दक्षिणदिशि सञ्जातेन तपोविघ्नेन खिन्नः. सो तपः, तस्य तपसा यद्यद्बलम् अर्जितं तत्सर्वं नष्टं, तेन दुःखितः पश्चिमदिशि पुष्करक्षेत्रे तपः कर्तुम् आरब्धवान्. तावति अयोध्याधिपतेः अम्बरीशस्य यज्ञपशौ इन्द्रेण अपहृते सति. सः प्रायश्चित्तरूपेण नरबलिं दातुं ऋचीकमहर्षेः मध्यमपुत्रं शुनश्चेपं गवां शतसहस्रेण क्रीत्वा नीतवान्. सः शुनश्चेपः रक्षणार्थं विश्वामित्रं प्रार्थयामास. तत्र गीर्वाणगणप्रार्थनया, गीर्वाणानां गणः. सो देयर इज अ टाइपिंग एरर. गीर्वाणानां गणः, गीर्वाणगणः, गीर्वाणाः देवाः. गीर्वाणगणस्य प्रार्थना तया परित्यक्त भुवनान्तर निर्माणकर्माणम्. सो भुवनान्तरं नाम अन्यत् भुवनं, भुवनान्तरं. सः तत्पुरुषसमासः. अन्यः राजा, राजान्तरम्. अन्यत् नगरं, नगरान्तरम्. सो अहं नगरान्तरं गच्छामि इत्युक्ते अन्यत् नगरं गच्छामि इत्यर्थः. सो तस्मिन्नर्थे अन्तरशब्दस्य समासः भवति तत्पुरुषसमासः. एवम् अन्यत् भुवनं, भुवनान्तरं. सो भुवनान्तरस्य निर्माणं, भुवनान्तरनिर्माणं, भुवनान्तरनिर्माणस्य कर्म. तत् परित्यक्तं, परित्यक्तं भुवनान्तरनिर्माणकर्म येन सह. अत्र समासकरणे एतत्तु पूर्वमपि उक्तं, द्वयोः द्वयोः शब्दयोः समासः क्रियते. किन्तु सर्वदा प्रथमशब्दात् आरब्धव्यम् इति नास्ति. अत्र किं भवति, यदि परित्यक्तं भुवनं, प्रथमशब्दः परित्यक्त, द्वितीयशब्दः भुवनं, तर्हि परित्यक्तं भुवनम् इति कर्तुं शक्यते वा? न शक्यते. तेन भुवनं न परित्यक्तं. किं परित्यक्तं? कार्यं. किं कार्यं? निर्माणस्य कार्यं. कस्य निर्माणं? भुवनान्तरस्य निर्माणम्. अतः अर्थम् आश्रित्य एव समासः कर्तव्यः. यदा द्वयोः समासः इत्युच्यते, तत्र सर्वदा आरम्भतः एव करणीयम् इति नास्ति. सो परित्यक्तम् इत्यस्य कुत्र अन्वयः? किं परित्यक्तम् इति चेत् कर्म परित्यक्तम्. कर्म परित्यक्तं, कर्म कार्यं, कर्म इत्युक्ते कार्यं. किं कार्यं त्यक्तम्? निर्माणस्य कार्यम्. अतः निर्माणस्य कर्म. कस्य निर्माणस्य कर्म? भुवनान्तरस्य निर्माणम्. अतः भुवनान्तरस्य निर्माणं, भुवनान्तरनिर्माणस्य कर्म, तत् परित्यक्तम्. भुवनान्तरं नाम किम्? अन्यत् भुवनं भुवनान्तरम्. एवं वस्तुतः समासे अपि आकाङ्क्षाक्रमम् आश्रित्य एव समासः कर्तव्यः, न केवलं श्लोके. वयमिदानीं श्लोके प्रश्नं पृष्ट्वा कथम् अन्वयः इति जानीमः. न केवलं तत्र, दीर्घानि समस्तपदानि अत्र भवन्ति, तत्रापि आकाङ्क्षाम् आश्रित्य एव समासः कर्तुं शक्यते. परित्यक्तभुवान्तरनिर्माणकर्माणं, तत्र तपः प्रत्यूहः प्रत्युद्भूतः इति. तपः प्रत्यूहः, तपसः प्रत्यूहः. प्रत्यूहः नाम विघ्नः, विघ्नोन्तरायः प्रत्यूहः इति अमरकोशे अस्ति. सो तपसः विघ्नः सञ्जातः इति. उत्तमः प्रश्नः. अत्र परित्यक्तभुवनान्तरनिर्माणकर्माणं, सो तत्र परित्यक्तशब्दस्य अन्ते एव स्थापनं शक्यमासीद्वा इति. So, could he have put that parityakta at the end to avoid confusion? Na, samase kim purva padam bhavati, kim uttara padam bhavati ityatra niyamaha santi. Aham idanim putraha rajyaha iti vadami chedati, athava rajyaha putraha iti vadami chedati, samanam rajaputraha ityeva rupam, putra rajaha iti na bhavati. पुत्रः राज्ञः अथवा सीतायाः पतिः इत्युक्ते सीतापतिः. पतिः सीतायाः इत्युक्ते पतिसीता इति भवति वा? न भवति, किल. तथैव अत्रापि परित्यक्त यदा समासः क्रियते, तदा परित्यक्त इति निष्ठा तप्रत्ययान्तशब्दः, सः पूर्वत्र भवति इति नियमः अस्ति. अतः परित्यक्तशब्दः अन्ते न गच्छति. अग्रे गच्छामः. तपः प्रत्यूहः प्रत्युद्भूत इति. पश्चिमस्यां दिशि पुष्करे पुष्कलं तपश्चरन्तम् अमुम् इत्यादि. अग्रे विशिष्य व्याकरणं किमपि नास्ति. अग्रिमः गद्यभागः. अयं भगवान् निजतनयविनिमयेन रक्षितुमेनमुन्मुखः पराङ्मुखेभ्यस्तेभ्यो हविष्यन्दादिभ्यः शापेन वसिष्ठपुत्रदशां दत्त्वा गाथाद्वयप्रीताभ्याम् इन्द्रोपेन्द्राभ्याम् अम्बरीशं शुनश्येपं च परिपूर्णमनोरथौ कारयामास. परच्छेदः केऽपि प्रयत्नं कर्तुमिच्छन्ति? शारदा
अयं भगवान् निजतनय विनिमयेन रक्षितुम् एनम् उन्मुखः पराङ्मुखेभ्यः तेभ्यः हविष्यन्दादिभ्यः शापेन वसिष्ठपुत्रदशां दत्त्वा गाथाद्वयप्रीताभ्याम् इन्द्र उपेन्द्राभ्याम् अम्बरीशं सुनशेफं च परिपूर्णमनोरथः
अयं भगवान् निज तनय विनिमयेन रक्षितुम् एनम् उन्मुखः पराङ्मुखेभ्यः तेभ्यः हविष्यन्द आदिभ्यः शापेन वसिष्ठपुत्रदशां दत्त्वा गाथाद्वय प्रीताभ्याम् इन्द्र उपेन्द्राभ्याम् अम्बरीशं शुनश्शेपं च परिपूर्ण मनोरथौ कारयामास अयं भगवान् एषः पूज्यः विश्वामित्रः अयम् इति शतानन्दः कथयति एतत् सर्वम् अतः अयं पूज्यः विश्वामित्रः निजतनय विनिमयेन स्वपुत्रेषु कस्यचित् परिदानेन विनिमयः इस् एक्स्चेञ्ज् शुनक्षेपं रक्षितुं स्वस्य तनयेषु अहम् एकं ददामि इति विश्वामित्रः चिन्तयति सो निजं नाम स्वीयं सो निजशब्दस्य संस्कृते स्वम् आत्मीयम् इत्येव अर्थः कन्नडभाषायां तमिळ्भाषायाम् अन्यासु भाषासु सत्यम् इत्यर्थः अस्ति संस्कृते नास्ति निजं नाम स्वीयम् इत्येव अर्थः सो स्वस्य पुत्रस्य विनिमयेन एनम् एनं शुनक्षेपं रक्षितुं पालयितुम् उन्मुखः उत्सुकः आसीत् तावदेव किल मम पुत्राः सन्ति पुत्रेषु एकं दत्त्वा अहम् एतं रक्षामि इति विचिन्त्य सः पुत्रान् पृच्छति कः करोति इति पराङ्मुखेभ्यः तेभ्यः हविष्यन्दादिभ्यः शापेन वसिष्ठपुत्रदशां दत्त्वा सो पराङ्मुखाः नाम अनिच्छन्तः न इच्छन्ति सो पराङ्मुखः वस्तुतः पदस्य अर्थः मुखं परावर्तन्ते सो टर्न्ड् फेसस् इत्यर्थः किन्तु न इच्छन्ति निराकृतवद्भ्यः इत्यर्थः ते हविष्यन्दादिभ्यः तेभ्यः तस्य पुत्रेषु ज्येष्ठः हविष्यन्दः अन्येपि पुत्राः आसन् स्वपुत्रेभ्यः शापेन आक्रोशेन वसिष्ठपुत्रदशां दत्त्वा वसिष्ठस्य पुत्रेभ्यः यः शापः दत्तः श्वभक्षकत्वम् इति तमेव शापं स्वपुत्रेभ्यः अपि ददाति विश्वामित्रः अत्र सर्वत्र विश्वामित्रस्य कथायां तस्य किं क्यारेक्टर् एवल्यूशन् इति किं वदामः तद् बहु सम्यक् ज्ञायते शिष्यवाल्मीकिरामायणे यदा कविवर्णनं पठ्यते तत्र वाल्मीकिः बहु सम्यक् प्रदर्शयति का विश्वामित्रः स्वभावतः उत्तमः अन्येषां साहाय्यं कर्तव्यम् इति आसीत् किन्तु न तावता अलं कामः क्रोधः इत्यादि तस्मिन् बहु आसीत् किन्तु गच्छता कालेन सः कथम् इन्द्रियाणि विजित्य कामक्रोधादिकम् अपि विजित्य अन्ते बहु सहस्राणां वर्षाणां तपसा एव सः ब्रह्मर्षिपदं प्राप्नोति सो इट्स् अ वेरि सार्ट् आफ् एन्करेजिङ्ग् फेक्टर् फार् आल् आफ् अस् इट्स् नाट् दट् हि वास् मेड् पर्फेक्ट् ओके सो हि शोस् एट् एव्रि स्टेप् ईवन् वैल् ट्रैङ्ग् टु डू समथिङ्ग् गुड् हि स्लिप् he falls, he curses somebody, he loses his tapashakti and so on. So only after repeated attempts for thousands of years. So yatha bhagirathasya kathaya asmabhihi perseverance iti gunaha jnatum shakyate evameva vishwamitrena api jnatum shakyate. So havishyandaribhyaha shapena vasishtaputra dasham dattva.
గాథాద్వయ ప్రీతాభ్యాం ఇంద్రోపేంద్రాభ్యాం అంబరీషం శునశ్చేపం చ పరిపూర్ణ మనోరథౌ కారయామాస. కార్యం తు సాధయతి సహ కథంచిత్. కథం గాథాద్వయ ప్రీతాభ్యాం, సహ గాథాద్వయం, గాథ ఇది కశ్చిన్ స్తోత్రం, స్తోత్రం ఇది వక్తుం శక్నుమః. సో గాథాద్వయం విరచయ్య పాఠయతి శునశ్చేపాయ. సో గాథాద్వయ ప్రీతాభ్యాం, సో తాభ్యాం స్తుతిభ్యాం సంతుష్టౌ కౌ సంతుష్టౌ ఇంద్రోపేంద్రౌ, ఇంద్రః ఉపేంద్రశ్చ. ఇంద్రః దేవేంద్రః, ఉపేంద్రః విష్ణుః. విష్ణుః వామనావతారే అదితేః పుత్రరూపేణ ఇంద్రస్య అనుజః జాతః, అత ఏవ తస్య ఉపేంద్రః, ఇంద్రస్య అనుజః ఇతి నామ. సో ఇంద్ర ఉపేంద్రాభ్యాం, సో ఇంద్రస్య విషయే ఏకాం గాథాం, విష్ణోః విషయే అపరాం గాథాం రచయతి. సో తేన ప్రీతౌ ఇంద్రః విష్ణుశ్చ. సో తాభ్యాం అంబరీషం శునశ్చేపం చ. సో అంబరీషః కిమిచ్చతి, యజ్ఞం పూరయితుం ఇచ్చతి. సో తం అంబరీషం శునశ్చేపం, శునశ్చేపః తు ప్రాణరక్షణం ఇచ్చతి. సో రక్షణం ప్రార్థితవంతం రుచీకపుత్రం చ పరిపూర్ణ మనోరథౌ. సో సిద్ధ అభీష్టౌ. సో ఉభయోరపి ఇచ్ఛా సంపూర్ణ. అంబరీషః యజ్ఞఫలం పూర్ణతః ప్రాప్తవాన్, శునశ్చేపః అపి సజీవం రక్షితః ఇంద్ర ఉపేంద్రయోః అనుగ్రహేణ. సో పరిపూర్ణ మనోరథౌ కారయామాస. సో స్వపుత్రాన్ శప్త్వా గాథాద్వయం విరచయ్య సహ శునశ్చేపం పాఠయతి. అనంతరం సహ శునశ్చేపః యదా తద్గాథాద్వయం గాయతి తదా ఇంద్ర ఉపేంద్రౌ ప్రీతౌ, తస్య మనోరథం తథా అంబరీషస్య మనోరథమపి పూరయతః. విశ్వామిత్రః స్వపుత్రేషు కస్యచిత్ ప్రతిదానేన శునశ్చేపం రక్షితుం ఇష్టవాన్, కింతు తత్పుత్రాః తస్మాద్ విముఖాః నిరాకృతవంతః. తేన కుపితస్సన్ వాసిష్ఠాన్ ఇవ స్వపుత్రానపి శ్వమాంసభక్షకత్వేన శప్త్వా. విశ్వామిత్రః శునశ్చేపం ఇంద్ర ఉపేంద్ర స్తుతిపూర్వకం గాథాద్వయం పాఠితవాన్. తాభ్యాం ప్రీతయోః ఇంద్ర ఉపేంద్రయోః అనుగ్రహేణ శునశ్చేపః సజీవం రక్షితః, అంబరీషః అపి యజ్ఞఫలం ప్రాప్తవాన్. నిజ తనయ వినిమయేన, నిజః తనయః, నిజతనయః, నిజతనయస్య వినిమయః తేన, నిజతనయ వినిమయేన రక్షితుమేన ఉన్ముఖః ఇంద్ర ఉపేంద్రాభ్యాం. ఇంద్రశ్చ ఉపేంద్రశ్చ ఇంద్రోపేంద్రౌ తాభ్యాం. సో ఇంద్రో మరుత్వాన్ మఘవా జ్ఞాయతే ఏవ. ఉపేంద్ర ఇంద్రావరజః చక్రపాణిశ్చతుర్భుజః. ఉపేంద్రః ఇంద్రావరజః, ఇంద్రస్య అవరజః, అవరజః అనుజః ఇత్యర్థః. సో విష్ణుః ఇత్యర్థః. పరిపూర్ణ మనోరథౌ, పరిపూర్ణః మనోరథః యయోః తౌ పరిపూర్ణ మనోరథౌ కారయామాస. కృ ధాతోః నిజంతాత్ లిట్లకారే ప్రథమపురుషే ఏకవచనం. కరోతి కారయతి. సో కరోతి ఇత్యస్య లిట్లకారే చకార చక్రతుః చక్రుః ఇది భవతి. కారయతి ఇత్యస్య లిట్లకారే కారయామాస కారయామాసతుః కారయామాసుః ఇది భవతి. అయం భగవాన్ నిజతనయ వినిమయేన రక్షితుమేనం ఉన్ముఖః పరాంగ్ముఖేభ్యస్తేభ్యః భవిష్యందాదిభ్యః శాపేన వశిష్ఠపుత్రదశాం దత్వా గాథాద్వయ ప్రీతాభ్యాం ఇంద్రోపేంద్రాభ్యాం అంబరీషం శునశ్చేపం చ పరిపూర్ణ మనోరథౌ కారయామాస. తతః తపస్యంతమేనం మేనకాసంగత తపోభంగశ్చిరమంగీసకార. తతః తపస్యంతం ఏనం మేనకాసంగతః తపః భంగః చిరం అంగీచకార. త ततः शुनक्षेपस्य प्रसङ्गानन्तरं पुनरपि तपः कर्तुमुद्युक्तः सो तपस्यन्तं सो तपश्चरन्तम् एनं विश्वामित्रं मेनका सङ्गतः सो मेनका नाम्न्याः अप्सरसः सङ्गात् सो इन्द्रः विश्वामित्रस्य तपोभङ्गार्थं मेनकां प्रेषयति तया आकृष्टः विश्वामित्रः तया सह बहुकालं यापयति तदा एव शकुन्तलायाः जननं भवति इत्यादि कथा अस्ति सो मेनका सङ्गतः तपोभङ्गः तपसः विच्छेदः चिरं बहुकालम् अङ्गीचकार अनुससार तपोभङ्गः एनम् अङ्गीचकार सो इट्स् अ वेरि विशिष्टः प्रयोगः सो तपोभङ्गः जातः इति अस्तु सो तपोभङ्गः एनम् अङ्गीचकार सो लिटरली इट् वुड् बि ट्रान्स्लेटेड् एस् ब्रेक् इन् पेनन्स् एक्सेप्टेड् हिम् इट्स् अ यूनीक् प्रयोग तपोभङ्गः जातः इत्येव अर्थः तात्पर्यं तपोभङ्गार्थम् इन्द्रेण प्रेषितया अप्सरसा मेनकया आकृष्टः विश्वामित्रः तपोनियमादिकं त्यक्त्वा तस्याः सहवासे चिरकालं यापयामास यस् सो हि वाज् अट्राक्टेड् बै हर् एण्ड् सो हि लेफ्ट् हिस् पेनन्स् एण्ड् स्पेण्ट् अ लाङ्ग् टैम् वित् हर् सेवरल् इयर्स् वित् हर् ततः तपस्यन्तम् एनं मेनका सङ्गतः तपोभङ्गः चिरम् अङ्गीचकार अस्य तपसः भङ्गः उत्पन्नः कस्मात् कारणात् मेनकायाः सङ्गात् इति तपस्यन्तं तपस्यति सो तपस् इति नामपदं तपः तपसि तपांसि तस्मात् क्यङ् इति प्रत्ययः सो अयं नामधातुः इति कथ्यते सो नामधातवः इति भवन्ति पूर्वमपि दृष्टं पुत्रीयति इति आसीत् पुत्रीयतः दशरथस्य पुत्रम् आत्मनः इच्छति पुत्रीयति सो नामपदात् धातोः जननं भवति सो निष्पादनं भवति तादृशाः धातवः नामधातवः इति कथ्यन्ते सो विशिष्टप्रत्ययाः भवन्ति एवमत्र तपस्यति सो तपति इति साक्षात् क्रियापदमस्ति तप्यति इत्यादि तपस्यति इत्यत्र तु तपस् इति सुबन्तात् ह्यङ् प्रत्ययः भवति यः नामधातुः तपस्य इति धातुः सो तस्य तपस्यति तपस्यतः तपस्यन्ति इत्यादि रूपाणि भवन्ति तस्मात् शत्रुप्रत्ययः तदा तपस्यन्तम् इति भवति तपस्यन् तपस्यन्तौ तपस्यन्तः तपस्यन्तं तकारान्तस्य पुल्लिङ्गस्य द्वितीयाविभक्तौ एकवचनरूपम् सो तपस्यन्तम् एनं मेनका सङ्गतः सो मेनकायाः सङ्गः तस्मात् सो पञ्चम्या स्तसिः बहु प्रसिद्धः प्रत्ययः सामान्यतः संस्कृतस्य आरम्भिकस्तरे पञ्चमीविभक्तेः स्थाने तः इत्यस्य प्रयोगः पाठ्यते सरलं भवति एतत्तु अव्ययं भवति रूपभेदः न भवति अतः अहं नगरतः आगच्छामि शालातः आगच्छामि गृहतः आगच्छामि इत्यादि सर्वत्र तः इति योजयामः चेत् सरलम् इति मेनका सङ्गं तः तस्मात् इत्यर्थः तपोभङ्गः चिरम् अङ्गीचकार पश्चात्तापापि भूतः अयम् उत्तरे भूभृति कौशिकीतीरे घोरं तपश्चचार पश्चात्ताप अभिभूतः अयम् उत्तरे भूभृति कौशिकीतीरे घोरं तपः चचार पश्चात् तदनन्तरं पश्चात् मेनका सङ्गः बहुकालम् अभूत् तदनन्तरं पश्चात्ताप अभिभूतः पश्चात् ताप वेरि क्लियर् पश्चात् अनन्तरं तापः दुःखं कार्यस्य करणसमये न ज्ञायते तदनन्तरं यः तापः दुःखम् उत्पद्यते सः पश्चात्तापः रिपेण्टेन्स् इत्युच्यते सो अनुतापेन खिन्नः So he was extremely depressed because he got sidetracked. So paschat paschattapa bhibhutah ayam Vishwamitrah uttare bhubhriti. So in the northern mountain, bhubhrit nama girihi parvatah ityarthah. So uttare bhubhriti Himalaya parvatah ityarthah. So for India, the standard, the northern mountain is Himalaya. So uttare bhubhriti Himalaya parvate kaushiki tire kaushiki nadyah tate ghoram atyugram tapaschachara tapah krutavan. So idanim uttaram gatavan adau dakshina dishi arabdhavan tatra tapobhangah abhut iti paschimam disham gatavan tatrapi tapobhanga karanena idanim uttaram disham gatavan. So tatra himalaye kaushiki nadyah tire bahukalam tapaschati. So menaka prasanganantaram taponashakaranat anutapena khinnaha Vishwamitraha uttara dishi Himalaya parvate kaushiki tate atyugram tapah krutavan. Paschat paschat tapabhibhuto yam uttare bhubhriti kaushiki tire ghoram tapaschachara tatra jambhari prahitam rambham shaili bhaveti shaptva Urvasyan dishi nirastanishvasam tapascharatyamushmin ushmana tapogne ruddignita amarasakhastamarasatanasannidhaya jitendriyatvad brahmarshirati vasishtho kevam vyaharatu bhavantam ityabhashata. The final leg of Vishwamitra's journey. Kopi padachedam kartum icchati. Anybody? Janaki Bhaji? You can mute yourself. Udvignita amarasakaha.
Udvignita amarasakaha. Tamarasasanaha. Sannidhaya. Jitendriyatvat. Brahmarshihi asi. Vasishtaha api evam. Yaharatu. Bhavantam. Iti. Abhashata.
Samyak. Tatra. Jambhari prahitam. Jambhari. Jambhari prahitam. Rambham. Shaili bhava iti shaptva purvasyam dishi nirasta nishvasam tapaha charati amushmin ushmana tapognehe tapas agnihi tapognehe udvignita amara sakhaha tamarasa asanaha sannidhaya jita indriyatvat jitendriyatvat Brahma Rishihi, Brahmarshihi Asi, Vasishtaha Api, Evam Vyaharatu, Bhavantam Iti Abhashata. So Tatra Himalaye, Yada Eshaha Tapascharatisma, Tada Jambhari Prahitam, Indraha Punarapi Prayatnam Karvati, Jambharihi Indraha, Tena Prahita, Preshita, Indrena Preshita, Ka Rambha. So apsarasaha bahvyah santi ghritati menaka rambha urvashisha tilottama ityadi amarakosheva namani uchyante tatra rambha iti apara apsarastri. So rambha namnim apsarasam shaili bhaveti shaptva idanim tu Vishwamitraha kamam jitavan अतः रम्भया न आकृष्टः, किन्तु क्रोधः तथैव अस्ति। अतः शैली भव, शैली शिलारूपा भव जायस्व इति शप्त्वा, एवं रूपेण शापं दत्त्वा। सो सः रम्भया न आकृष्टः, किन्तु शिलारूपं प्राप्नुहि इति शापं ददाति। सो तत्र जम्भारिप्रहितां रम्भां शैली भव इति शप्त्वा पूर्वस्यां दिशि। सो नेक्स्ट् द फोर्थ् डिरेक्षन्, दक्षिणं पश्चिमं उत्तरे, पुनः इदानीं पूर्वस्यां दिशि। निरस्तनिश्वासं तपः चरति अमुष्मिन्। सो पूर्वस्यां दिशि प्राच्यां निरस्तनिश्वासं, निश्वासः उच्छ्वासः, सो निश्वासः इस् एक्सलेशन्, सो निरस्तं प्राणसञ्चारं विरुध्य, सो होल्डिङ्ग् हिस् ब्रेत्। सो तत्र योगशास्त्रे बहुविधाः प्राणायामाः उच्यन्ते, पूरकं रेचकं कुम्भकम् इत्यादि। तत्र केवलकुम्भके सम्पूर्णतः प्राणानां निरोधः कर्तुं शक्यते। सो तथा प्राणसञ्चारं निरुध्य तपश्चरति अमुष्मिन्, अमुष्मिन् विश्वामित्रे तपश्चरति सति, तपः कुर्वति। सो तत्र सहस्रशः वर्षाणि यावत् सः तपः करोति निरस्तनिश्वासं। तत्र मध्ये एकः प्रसङ्गः रामायणे अस्ति, अत्र त्यक्तः, वस्तुतः तदा तस्य व्रतं भवति, सहस्रं वर्षाणि एवं तपः करोति, सहस्रवर्षानन्तरम् एकस्मिन् दिने किमपि भोजनं करोति, पुनः तपः करोति इति। तथा सः तत्र जितेन्द्रियस्थं तपः करोति स्म, सहस्रवर्षानन्तरम् एकस्मिन् दिने भोक्तुं किमपि भोजनं पक्त्वा सः भोक्तुम् उपविष्टः, तदा इन्द्रः आगत्य, इन्द्रः कस्यचित् वृद्धस्य वेषेण आगत्य भोजनं प्रार्थयते। सो अगेन् टु टेस्ट् विश्वामित्र, अस्माकमिदानीम् एकं दिनम् अल्पाहारं न कुर्मः अथवा भोजनं न कुर्मः, तदा अग्रिमभोजनकाले एव महान् कोपः उत्पद्यते। बुभुक्षितं न प्रतिभाति किञ्चित् इति उक्तिरेव अस्ति, यदा बुभुक्षा बाधते अन्यत् सर्वमपि क्रीणायते, किन्तु तस्मिन् समये अपि सः विश्वामित्रः क्रोधं न कृतवान्। सो तस्मै वृद्धाय स्वस्य भोजनं सर्वं दत्त्वा पुनरपि तपश्चरितुम् आरब्धवान्। सो इन्द्रः पुनः पुनः प्रयत्नं करोति, किन्तु इदानीं केनापि कारणेन विश्वामित्रं तपसः उच्चालयितुं न शक्नोति, अतः पुनः निरस्तनिश्वासं तपश्चरति अमुष्मिन्। सो प्राणसञ्चारं सम्पूर्णतः निरुध्य यदा विश्वामित्रः तपः कुर्वन्नासीत्, ऊष्मणा तपोग्नेः उद्विग्नितामरसखः तामरसासनः सन्निधाय। तपोग्नेः, तपः एव अग्निः, ज्वलनः, सो तस्य तपोरूपस्य ज्वलनस्य ऊष्मणा, ऊष्मा हीट् तापः, सो तस्य तपसा प्रपञ्चः एव दह्यते इति शङ्का उत्पन्ना। सो ऊष्मणा तपोग्नेः उद्विग्नित अमर सखः, उद्विग्निताः विह्वलिताः अमराः देवाः। सो आल् द देवास् गाट् एक्स्ट्रीम्ली वरीड् बिकास् दे वर् नाट् एबल् टु ब्रेक् हिस् पेनन्स् बै एनिथिङ्ग् and it was threatening to destroy the entire world. So udvignita amara sakha, so udvignitaihi amaraihi sahitah, so taihi saha tamarasasanah, tamarasam kamalam, so kamalasanah brahma sannidhaya. So vishwamitrasya pratyakshah bhutva jitendriyatvat brahmarshirati. सो जितेन्द्रियत्वात्, सो विषयप्रवृत्ति प्रतिरोधेन, सो इन्द्रियाणि विषयम् अनुधावन्ति इति प्रसिद्धं। सो विषयाणां प्रवृत्तिं निरुध्य जितानि इन्द्रियाणि इत्युक्ते शिक्षित इन्द्रियग्रामत्वात्, सो द सेन्सर्स् आर् अण्डर् हिस् कण्ट्रोल्, सो दे डु नाट् रन् आफ्टर् वाट् एवर् विषयस् दे वाण्ट्, सो दे ओन्ली
partake of the vishaya that he decides. That is the jitendriyatva. So jitendriyatvat brahmarshi rati tvam brahmarshihi jataha tavata vishvamitrasya santoshah nasti vasishthah mam angikaroti va brahmarshihi iti iti tasya chinta. Eto hi vasishthah eva tasya, he was like his idol. It was seeing Vasishtha that he started on the entire this one. So he wants to know if Vasishtha would accept him. I mean, he just does not want just somebody coming and telling him. So tattu Vishwamitraha Ramayane sakshat pruchyati. So Vasishtha api, so tvat pratipachi Vasishtha maharshihi api, evam, evam nama tvam brahmarshihi iti vyaharatu bhavantam. Vyaharatu vadatu athava angikarotu bhavantam Vishwamitram iti evam prakarena abhashata. Kaha abhashata? Tamarasasanaha. So Brahma Vishwamitram Brahmarshihi iti angikritavan. So uttaradishi yada Vishwamitraha tapascharatisma tada tasya tapobhangartham indraha rambham preshitavan. So jambhari prahitam rambham Shaili bhaveti shaptva. So krodhena tam shaptva Vishwamitraha purvam dishangatva tatra pranasancharam niruddhya atyugram tapaha krutavan. Tasya taporupasya jvalanasya tapena vyathitaha devaha brahmana saha tatsamaksham adatya tam brahmarshi viti angi krutavantaha vasishtaha api anumoditavan. So Ramayane पुनः बहु सम्यक् अस्ति तस्य अनुच्छसमानस्य मूर्ध्नि धूमो व्यजायत. सो यदा सः प्राणान् निरुद्ध्य तपः कृतवान् मूर्ध्नि तस्य शिरसि धूमः उत्पन्नः त्रैलोक्यं येन संभ्रांतं आतापितमिवाभवत्. सो तेन त्रैलोक्यमपि आतापितम् इट लुक्ड एज इफ द थ्री वर्ल्ड्स वर बर्निंग. बहुभिः कारणैर्देव विश्वामित्रो महामुनिः लोभितः क्रोधितश्चैव तपसा चाभिवर्धते. सो दिस इज नॉट अ कंटीन्यूअस सिलेक्शन, आई ओनली सिलेक्टेड अ फ्यू श्लोकस. सो देवाः ब्रह्मणः समीपं गत्वा वदन्ति सो बहुभिः कारणैः लोभितः क्रोधितश्चैव. सो वयं बहुधा प्रयत्नं कृतवन्तः तस्य लोभः लोभः इज टू टेम्प्ट रम्भां प्रेषयित्वा अन्याभिः अथवा क्रोधः क्रोधम् उत्पादयितुं वा लोभम् उत्पादयितुं लोभेन कामं जनयितुं वा बहुधा प्रयत्नः कृतः तेन तपोभङ्गः भवति इति. किन्तु बहुभिः कारणैः लोभितः क्रोधितः चैव तपसा अभिवर्धते. हि इज स्टिल एन्हान्सिंग हिज तपस् एंड नॉट गिविंग इट अप. सो तदा ब्रह्म आगत्य वदति ब्रह्मर्षे स्वागतं तेऽस्तु तपसास्म सुतोषिताः ब्राह्मण्यं तपसोग्रेण प्राप्तवानसि कौशिक. त्वम् उग्रेण तपसा ब्राह्मण्यं प्राप्तवानसि इति ब्रह्मा विश्वामित्रं कथयति. तदा विश्वामित्रः वदति ब्राह्मण्यं यदि मे प्राप्तं दीर्घमायुस्तथैव च ओंकारोथ वषट्कारो वेदाश्च वरयन्तु माम्. तो यदि मया ब्राह्मण्यं प्राप्तं तर्हि वेदाः माम् अंगीकुर्वन्तु. ब्राह्मणः इत्युक्ते ब्रह्म नाम वेदाः. तो तत्स्वरूपः एव ब्रह्मर्षिः इत्युच्यते. अतः ओंकारः प्रणमः एव अस्माकं सर्वस्यापि मूलभूतं तत्त्वम् इत्युच्यते. वषट्कारः वेदाश्च माम् वरयन्तु. अपि च क्षत्रवेदविदां श्रेष्ठः ब्रह्मवेदविदामपि ब्रह्मपुत्रो वसिष्ठो माम् एवं वदतु देवताः. ब्रह्मणः पुत्रः वसिष्ठः सः कीदृशः क्षत्रवेदविदां श्रेष्ठः इत्युक्ते आयुधविद्या. क्षत्रवेदः नाम युद्धादिकम् आयुधप्रयोगः. तत्र श्रेष्ठः ब्रह्मवेदविदामपि यथा ब्राह्मण्ये तथा क्षात्रे अपि अत्यन्तं श्रेष्ठः वसिष्ठः मामेवं वदतु मां ब्रह्मर्षिरिति वदतु. ततः प्रसादितो देवैः वसिष्ठो जपतां वरः सख्यं चकार ब्रह्मर्षिः एवम् अस्त्विति चाब्रवीत्. इदानीं वसिष्ठविश्वामित्रयोः सख्यं जातं.
वसिष्ठः अपि विश्वामित्रं ब्रह्मर्षिम् अङ्गीकृतवान्। तत्र जम्भारिप्रहिताम्, जम्भस्य अरिः जम्भारिः, जम्भः इति कश्चित् असुरः, तस्य अरिः जम्भारिः, जम्भारिणा प्रहिता। समरकोशे जम्भभेदी हरिहयः इत्यस्ति, जम्भस्य भेदनं कृतवान् इति इन्द्रस्य पर्यायः। निरस्तनिश्वासम्, निरस्तः निश्वासः यथा तथा। उद्विग्नितामरसखः, उद्विग्निताः अमराः, उद्विग्नितामराणां सखा। सखी शब्दस्य विशेषः इकारान्तः शब्दः, सखा सखायौ सखायः, सखायं सखायौ सखीन् इत्यादि भवति। किन्तु यदा तत्पुरुषसमासः भवति, राजाः सखिभ्यश्च इति समासान्तेन सखिशब्दः अकारान्तः भवति, अत एव सखः। एवं राजशब्दः, राजा राजानौ राजानः। किन्तु यदा समासः क्रियते महाराजः, महाराजौ महाराजाः इति अकारान्तत्वं भवति। एवं सखिशब्दस्यापि समासान्ते अकारान्तत्वं भवति। स्वतः आप्तसखः इति अकारान्तत्वमेव। अमरसखः, तामरसासनः, तामरसम् आसनं यस्य सः। पङ्केरुहं तामरसं सारसं सरसीरुहम् इति कमलस्य पर्यायेषु उच्यते। ब्रह्मर्षिः, ब्रह्मर्षिशब्दस्य बहुधा निष्पत्तिः प्रदर्श्यते। ब्रह्मा इत्युक्ते सः सृष्टिकर्तः ब्रह्मा। तत्तुल्यः, ब्रह्मतुल्यः ऋषिः, ब्रह्मा ऋषिः, ब्रह्मा चासौ ऋषिश्च। ब्रह्मा इत्युक्ते ब्रह्मणा सदृशः इति एकः अर्थः। अथवा ब्रह्म इत्युक्ते ब्रह्मशब्दस्य वेदः इत्यर्थः अस्ति, परं ब्रह्म इत्यपि अर्थः अस्ति। ब्रह्मशब्दः नकारान्तः, पुल्लिङ्गे अपि अस्ति, नपुंसकलिङ्गे अपि अस्ति। पुल्लिङ्गे ब्रह्मशब्दस्य कमलासनः, सृष्टिकर्ता इत्यर्थः। सो ब्रह्मा ऋषिः इत्युक्ते ब्रह्मतुल्यः ऋषिः इत्यर्थः। अथवा ब्रह्म नपुंसकलिङ्गे वेदः इत्यर्थः, अथवा परतत्त्वं परं ब्रह्म इत्यर्थः। सो ब्रह्म ऋषति, ऋषति नाम वेत्ति, यः वेदान्, वेदस्य सारं तत्त्वं जानाति अथवा ब्रह्मतत्त्वं जानाति, सः ब्रह्मर्षिः इति ब्रह्मर्षिशब्दस्य निष्पत्तिः। व्याहरतु, वि आ उपसर्गद्वयं, हृञ्हरणे धातोः, लोट्लकारे मध्ये प्रथमपुरुषे एकवचनं। व्याहरति इत्यस्य वदति इत्यर्थः। अत्र अद्य अत्र भवतु, अग्रे अग्रिमसप्ताहे अनुवर्तयामि। अद्य विश्वामित्रस्य कथा दृष्टा। विश्वामित्रस्य शुनश्शेपं, विश्वामित्रः अम्बरीशस्य यज्ञे नरपशुत्वं प्राप्तं शुनश्शेपं रक्षितवान्। अनन्तरं मेनकया सह कञ्चित् कालं यापयित्वा ततः पुनः तपः कर्तुम् आरब्धवान्। तपोभङ्गार्थं प्राप्तां रम्भां शप्त्वा पूर्वस्यां दिशि अद्युग्रं तपः आचर्य ब्रह्मर्षिपदं प्राप्तवान् इत्येतावत् दृष्टम्। अग्रिमसप्ताहे अनुवर्तयामः। लक्ष्मीं तनोतु नितरामितरानपेक्षमं हृद्वयन्निगमशाखिशिखा प्रवालम्, हैरम्बमम्बुरुहडम्बरचौर्यनिघ्नं विघ्नाद्रिभेदशतधारधुरन्धरं नः।